अथ तृतीयः पादः अलुगुत्तरपदे पञ्चम्यास्तोकादिभ्यः ओजःसहोम्भस्तमसस्तृतीयायाः मनसः संज्ञायाम् आज्ञायिनि च आत्मनश्च पूरणे वैयाकरणाख्यायां चतुर्थ्याः परस्य च हलदन्तात् सप्तम्याः संज्ञायाम् कारणाम्नि च प्राचां हलादौ मध्याद्गुरौ अमूर्ध्वमस्तकात् स्वाङ्गादकामे बन्धे च विभाषा तत्पुरुषे कृतिबहुलम् प्रावृत्शरत्कालदिवाञ्जे विभाषावर्षक्षरशरवरात् घकालतनेषु कालनाम्नः शयवासवासिष्वकालात् नेन्सिद्धबध्नातिषु च स्थे च भाषायां षष्ठ्या आक्रोशे पुत्रेऽन्यतरस्यां ऋतो विद्यायोनिसम्बन्धेभ्यः विभाषास्वसृपत्योः आनङ्गृतो द्वन्द्वे देवताद्वन्द्वे च ईदग्ने सोमवरुणयोः इद्वृद्धौ दिवोद्यावा दिवसश्च पृथिव्याम् उषासोषसः मातरपितरा उदीचाम् पितरा मातरा च छन्दसि स्त्रियाः पुंवद्भाषितपुंस्कादनों समानाधिकरणे स्त्रियामपूरणी प्रियादिषु तसिलादिष्वाकृत्वसुचः क्यङ्मानिनोश्च न कोपधायाः संज्ञापूरण्योश्च वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे स्वाङ्गाच्चेतोमानिनि जातेश्च पुंवत्कर्मधारय जातीयदेशीयेषु घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु न्योनेकाचो ह्रस्वः नद्याशेषस्यान्यतरस्याम् उगितश्च आन्महतः समानाधिकरणजातीययोः द्व्यष्टनः सङ्ख्यायामबुहुव्रीह्यशीत्योः त्रेस्त्रयः विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् हृदयस्य हृल्लेखयदल्लासेषु वाशोकशैरोगेषु पादस्य पदाज्ज्ञातिगोपहतेषु पद्यत्यतदर्थे हिमकाशिहतिषु च ऋचश्चे वाघोषमिश्रशब्देषु उदकस्योदःसंज्ञायाम् पेशं वासवाहनधिषु च एकहलादौ पूरयितव्येऽन्यतरस्याम् मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च इको ह्रस्वोऽङ्यो गालवस्य एकतद्धिते च ज्ञापोः संज्ञाछन्दसोर्बहुलम् त्वे च इष्टकेशीकामालानाञ्चिततूलभारिषु खित्यनव्ययस्य अरुर्द्विषदजन्तस्य मुम् इच एकाचों प्रत्ययवच्च वाचंयमपुरन्दरौ च कारे सत्यागदस्य श्येनतिलस्य पातेऽन्ये रात्रेः कृतिविभाषा न लोपो नयः तस्मान्नुडचे न भ्रान्नपान्न वेदा नासत्या न मुचि न कुल नख न पुंसक नक्षत्र नक्र नाकेषु प्रकृत्या एकादिश्चैकस्य चादुक् न गोप्राणिष्वन्यतरस्याम् सहस्य सः संज्ञायाम् ग्रन्थान्ताधिके च द्वितीये चानुपाख्ये अव्ययी भावे चाकाले वोपसर्जनस्य प्रकृत्याशिष्य गोवत्सहलेशो समानस्य छन्दस्य मूर्धप्रभृत्युदर्केशो ज्योतिर्जनपदरात्रिनाभिनाभगोत्ररूप स्थानवर्णवयोवचनबन्धुषो चरणे ब्रह्मचारिणि तीर्थेये विभाषोदरे दृग्दृशवतुषो इदं किमोरीष्की आसर्वनाम्नः विश्वग्देवयोश्चटेरद्यञ्चतावप्रत्यये समस्समि तिरसस्तिर्यलोपे सहस्य सद्धिः सधमादस्थयोश्छन्दसि द्व्यन्तरूपसर्गेभ्योपईत् ऊदनोर्देशे अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थितोत्सुकोतिकारकरागच्छेषु अर्थे विभाषा कोः कत्तत्पुरुषेचि रथवदयोश्च त्रिणे च जातौ कापथ्यक्षयोः ईषदर्थे विभाषापुरुषे कवञ्चोष्णे पथि च छन्दसि पृषोदरादीनि यथोपदिष्टम् सङ्ख्याविसाय पूर्वस्याह्नस्याहन्नन्यतरस्याम्नौ ढलोपे पूर्वस्य दीर्घोणः स हि वहो रोदवर्णस्य साढ्ये साढ्वा साढेति निगमे संहितायाम् कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नच्छिद्रस्रुवस्वस्तिकस्य न हि वृतिवृषिव्यधिरुचिसहितनिषुक्वौ वनगिर्योः संज्ञायाम् कोटरकिंशुलुकादीनाम् वले मतौ बह्वचो नजिरादीनाम् शरादीनाञ्च इको वहे पीलोः उपसर्गस्य घञ्यमनुष्ये बहुलम् इकः काशे दस्ति अष्टनः संज्ञायाम् छन्दसि च चितेः कपि विश्वस्य वसुराटोः नरे संज्ञायाम् मित्रे चर्षौ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ओषधेश्च विभक्तावप्रथमायाम् रुचितुनुघमक्षुतम् कुत्रो ऋष्याणाम् इकः सुञि व्यचोतस्तिङः निपातस्य च अन्येषामपि दृश्यते चौ सम्प्रसारणस्य अलुक्षष्ठ्या जातेरिको व्ययी भावे कोः कत्तदिको एकोनविंशतिः इति तृतीयः पादः।